सर्वेभ्यो नमस्कारः। सिद्धान्तकौमुद्याः स्त्रीप्रत्ययप्रकरणे एकादशः पाठः, फेब्रवरी मासस्य एकादशः दिनाङ्कः। एनाक्षरसमां नायम् अधिगम्य महेश्वरा कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। आदौ अष्टाध्यायीं पठामः। It has been a long time since you had a class. I guess 2012 was not a good year for our classes. We had, I guess, the maximum of 3 or 4 months throughout the year. So let us hope this year will be better. We were in the Stri Pratyaya Prakaranam. Stri Pratyayas, Stritva Bodhakaha Pratyayaha. Pratyayas which are used to indicate or denote Stritva, or the feminine nature of the Pratipadika, are called Stri Pratyayas. There are 8 Stri Pratyayas in all. Tap, Dap, Chap, Neep, Neesh, Neen, Oong and Ti. Right? So, the Prakarana started with the Tap. Ajadyatashtap is the general sutra, which just says for Akarantas, and for words of the Ajadigana, we have Tap. Okay, so Tap is considered a general Stri Pratyaya, and everything else is an exception to it. Most of it, I mean, say Runebhyo Neep is not, because for Rukarantas or Nakarantas, we don't have Tap. But starting from Tiddhanai, you will notice that all the Pratyayas, Neep or Neesh, are mandated for Akarantas. And therefore, they are an exception to Tap. Mostly, 90% of Stri Pratyayas are for Akarantas, and they are an exception to the general sutra of Ajadyatashtap. So then we also saw Dap, which was given by the sutra Dab Ubhabhyam Anyatarasyam. We had Neep Nishedha by Manaha and Anobahuvrihehe. So for those, that is for Mannantas, and for Ananta Bahuvrihi compounds, we have the Pratyaya Dap. Then we saw several sutras which give Neep. Starting from Ranebhyo Neep, we have Uvitascha, Vanoratha, Padonyatarasyam, and then it deviated into Neep, Nishedha and Dap. Coming back, we had Tiddhanai. And after Yanishcha, there was Shpa, another Stri Pratyaya followed by Neesh. Since Shpa has Shakara as It, any Pratyaya ending in Shpa will also get Neesh. Like Pracham Shpatadhitaha, there was Gargyayani for the word Gargya. In Strilinga you have Shpa. Shpa, the Phakara gets Ayan Adesha. And Neesh, so it becomes Ayani, Gargyayani. So there were a few other sutras for that. Sarvatra Lohitadikatam Tebhyaha, Kauravya Manduka Abhyancha. After that, we came back to Neep, right? So Vayasik Prathame. And then Dvigoho. We started with Dvigu Samasa. For Dvigu Samasas, in Strilinga, there is Neep being added. अपरिमाण विस्तासित कंबल्येभ्यो न तद्धितलुकि कांडांतात् क्षेत्रे पुरुषात् प्रमाणे अन्यतरस्याम्। अगेन दीज डील विथ द्विगु समास वेर वी हैव नीप वेर देयर इज तद्धितलुक एंड सम अदर स्पेसिफिक कंडीशंस। आफ्टर दैट स्टार्टिंग विद द नेक्स्ट सब प्रकरण विद इन द स्त्री प्रत्यय प्रकरण दैट इज वी फिनिश्ड विद द्विगु समास। Next, there is something concerned with the word Udhas. So, Udhasonang iti Agrimam Sutram Kaumudyam. Etatu Stri Pratyaya Vidhayakam Sutram Nasti. Udhasaha Anang iti Padadvayam बहुव्रीहौ सत्क्षिक्ष्णौ स्वाङ्गात् शचि इति सूत्रात् बहुव्रीहौ इति अनुवर्तते. इदं समासान्तविधायकं सूत्रम्. There are a set of pratyayas which are given at the end of a samasa. That is, after you do a samasa, so specific to that particular samasa, there might be some pratyayas. They are called samasantas. So this sutra comes there. So bahuvrihau. Urhontasya bahuvrihah ananadeshah syat priyam. So, a bahuvrihi samasa which has the word udhas at the end of it, so as a samasanta pratyaya, that is samasanantaram, tatra anang iti adeshaha bhavati, strilinge. So, udhaha shabdasya, stanam ityarthaha, it's the udder of a cow, is called udhas. The udder is called udhas. So, when this word appears at the end of a bahuvrihi samasa, there is anang adesha. Kundam iva udhaha yasyaha iti samasaha. So a cow which has udders like pots, that is huge udders ityarthe. Kunda udhas ityanayohu anekamanya padarthe iti sutrena bahuvrihi samasaha. Bahuvrihi samase krute anang adeshaha. अनंगादेशः नित निच्च इत्यनेन अन्तादेशः अन्त्यस्य सकारस्य ऊधस् इत्यस्य सकारस्य स्थाने अन्न इति आदेशः भवति. अतो गुणे इत्यनेन पररूपे कृते ऊधन्. सुबोधातु प्रातिपदिकयोः इत्यनेन प्रत्यये लुप्ते कुण्ड ऊधन् इत्यस्य आद्गुणः इत्यनङ्गीकृते. सो अनङ्गीकृते कुण्डोधन् इति प्रातिपदिकम् समासत्वात् कृत्वर्थितसमासाश्च इत्यनेन प्रातिपदिकत्वम् भवति. कुण्डोधन् इति नकारान्तम् प्रातिपदिकम् अस्ति. इति अनङ्गीकृते डाप् नीप् निषेधेषु प्राप्तेषु. नौ वाट् इस् द स्त्रीप्रत्यय वि शुड् हाव् हियर् बिकास् दिस् इस् एन् अड्जेक्टिव् टु ए कौ. से अधेनुः इत्यस्य विशेषणम् स्त्रीत्वमस्ति. स्त्रीत्वादेव अनङादेशः कृतः. इदानीम् कः स्त्रीप्रत्ययः योजनीयः इति प्रश्नः. किम् प्राप्यते? डाप् प्राप्नोति, नीम् निषेधश्च प्राप्नोति. कथम् डाप्? डाप् नीप् निषेधेषु इति प्रतीक बालमनोरमायाम्. डावुभाभ्याम् इति वैकल्पिके डापि, अन उपधालोपिनः इति वैकल्पिके ङीपि, तदुभयाभावे ऋणेभ्यः इति प्राप्तस्य ङीपः, अनो बहुव्रीहेः इति निषेधे च प्राप्ते इत्यर्थः. सो त्रयाणाम् प्राप्तिः अस्ति. किमस्ति? डाप्, ङीप्, निषेधः. एतेषु प्राप्तेषु निषेधः कथम्? अनो बहुव्रीहेः इत्यनेन नीप् निषेधः, नीपः निषेधः. अन् इत्यस्ति अन्नन्ताद् बहुव्रीहेः, नीप् न स्यात् इति निषेधे निषेधः. निषेधे सति डाप् उभाभ्याम् अन्यतरस्याम्. मनः इति सूत्रेण वा, अनो बहुव्रीहेः इति सूत्रेण वा यदा निषेधः भवति तदा तस्य डाप् भवति विकल्पेन. इत्यनेन वैकल्पिके वैकल्पिकः डाप् प्रत्ययः प्राप्नोति. अनन्तरम् नीप् अन उपधालोपिनोऽन्यतरस्याम्. उपधालोपिनः नः, अत्र अन् इत्यस्ति अल्लोपो नः इत्यनेन उपधालोपस्य प्राप्तिः अस्ति. अतः पुनः नीप् विधानम् अस्ति विकल्पेन नीप् विधानम्. सो देर् इस् एन् आप्शनल् डाप्, देर् इस् एन् आप्शनल् नीप् एण्ड् देर् इस् निषेध. फर्स्ट् देर् इस् निषेध बै अनो बहुव्रीहेः. इनिशियलि नकारान्तत्वात् ऋणेभ्यो ङीप् इत्यनेन ङीप् प्राप्नोति, नित्यम् ङीप् प्राप्नोति. देर् इस् द चान्स् आफ् आडिङ्ग् ङीप् कम्पल्सरिलि बै ऋणेभ्यो ङीप्. सो टु प्रिवेण्ट् दट् वि हेव् अनो बहुव्रीहेः विट् इस् निषेध. सो वन्स् देर् इस् निषेध बिकास् आफ् अनो बहुव्रीहेः, देन् अप्लैस् डाप् उभाभ्याम्. So now DAP is optional. So when there is no dap, anaupadhalopino nyatarasyam will operate to provide an optional neep. So there is dap, neep and nishedha. So the commentator says, dabubhabhyam iti vaikalpike dapi, anaupadhalopinaha iti vaikalpike neepi, tadubhayabhave, when either of them don't apply, runebhyaha iti praptasya neepaha, anobahuvrihehe iti nishedhe cha prapte ityartha. So there are these three things which are possible here. I mean, none of them will happen. So, nishedheshu prapteshu kim bhavati. Bahuvrihe rudhaso nish. Iti agrimam sutram. Bahuvrihe udhasaha nish. Iti padachedaha. Trini padani santi sutre. Striyam ityadhikaraha asti. Udhontad bahuvrihe nish syat striyam. So, bahuvrihe samasa yadi udhashabdaha ante asti, tarhi strilinge nish pratyah bhavati. Kundodhi iti rupam. Kundodhan I ityasti alloponaha ityanena allopekrate kundodhi. So, kundodhi iti pratike anangi krate nishi allopoonaha iti bhavaha. Saeva prakriya. Kundodhan I allopoonaha kundodhan I kundodhni. Udhastu kliva maapinam ityamaraha. So, udhas is a napumsakalinga word meaning the udder. Nish vidhestu svare visheshaha phalam. So, why nish? I mean, what is the difference between neep and nish? We are in the Neep Prakarana, right? We are going on through sutras which are giving Neep. Vayasi Prathame Dvigohu and all that. So why is he introducing Neesh in between? Why not say Neep? Because Rupam tu Samanam Bhavati. Neep Pratyahava, Neesh Pratyahava, Rupam Samanam. Svare Visheshaha. But there will be a different Swara because Neesh is Shit. So here, to obtain that Swara, there is Nish and not Neep. So yeah, Jnantodatta is Nish because it is Shit. So to, for that Swara, there is Nish and instead of Neep. Striyankim kundodho dhainukam. So strilinge eva Nish bhavati iti uchyate kimartham iti prashnaha. There is why is this question? Sriyam kim ityukte, udhasya saying the udder, and it always refers to a she cow. It is always in strilinga when you have it. So why, the again you are saying sriyam iti prashnaha, kundodhaha dhainukam ityasti, dhenu naam samuhaha istarte dhainukam iti napumsakalinge bhavati, samase pratyaha asti, pratyaha asti anantaram napumsakalingatvam asti samuhaha samuhasya napumsakatvam hena dhainukam iti samasasya adi visheshanam bhavati tada atra strilingatvam nasti kundam iva udhamsi athava udhaha yasya tat iteva yasya samuhasya iti samuhasya visheshane atra napumsakalingatvam asti napumsake stri pratyaha na bhavati nish pratyaha na bhavati. Iha anang api na. So here you also do not have anang. This is fine because this is in the stradhikara. Bahuvrihe rudhaso nish iti sutram tu. Striyam iti adhikare asti. Ataha striyam eva bhavati iti vaktum shakyate. Kinto anang vidhayakam sutram. Udhaso nang iti. Striyam iti adhikare nasti. Panchamadhyaye asti. Tarhi anang bhavet kila iti prashnaha. Because the sutra does not mention striyam. It just says udhasaha anang bahuvrihehe iti anuvartate. Ataha udhontasya bahuvrihehe anang syat ityeva arthaha bhavati sutrate. Kintu tadvidhau striyam iti upasankhyanat vartikamasti. Strilinge eva bahuvrihehe ऊधोन्तस्य बहुव्रीहेः अनङ् भवति इति. अतः कुण्डोधः इत्यत्र अनङ् अपि नास्ति, कुण्डोधस् इति सकारान्तशब्दः एव. सो दट् इस् वै इन्क्लूडिङ्ग् द मीनिङ्ग् आफ् दिस् वार्तिक द इन् द सूत्रार्थ, इफ् यु लुक् एट् द प्रीवियस् सूत्रार्थ, ऊधोन्तस्य बहुव्रीहेः अनङादेशः स्यात् स्त्रियाम् इत्येव दत्तं दीक्षितैः. स्त्रियाम् इति कथं लभ्यते? सूत्रस्य पदैः न लभ्यते. सूत्रे किमस्ति? ऊधसः अनङ् इत्यस्ति, बहुव्रीहौ इति अनुवर्तते. तेन कः अर्थः लभ्यते? ऊधोन्तस्य बहुव्रीहेः अनङादेशः स्यात् तावदेव. स्त्रियाम् इति कथं लब्धम्? वार्तिकबलेन लब्धम्. So there is a vartika which says this sutra will operate only in case of strilinga. So Dikshita has not mentioned the vartika separately. He has simply included that vartika to give the sutrartha, to give the intended meaning. Right? So now, you have Vahovrihe, Ruthaso, Nish. Both Anang and Nish apply only in strilinga. So in... Napumsakalinga like Kundodhaha, neither of them will apply. Sankhya Vyayadeer Nyeep Edi Agrimam Sutram Padadvayam Asti Sankhya Avyayadehe Nyeep. So Bahuvrihe Rudhaso Nishityataha Bahuvrihehe Iti Udhasaha Iti Cha Anuvartate Nishaha Apavadaha. So, the previous sutra gave Nish. Now, Sankhyavyayadehe. Sankhyavyayadehe Udhontad Bahuvrihehe Sriyam Neepsyat Ityartaha. So, if there is a Bahuvrihi Samasa ending in Udhas and starting with either Sankhya or Avyaya, Sankhyadehe Udhontat Athava Avyayadehe Udhontat Bahuvrihehe स्त्रीलिंगे नीप भवति न तु नीश. ओके, सो अनंग इज कॉमन, यत्किमपि भवतु अनंग तु भवत्येव, किन्तु नीप नीशं बाधित्वा अत्र नीप भवति. अतः यथोक्तं स्वरे विशेषः फलम्. द्व्यूध्नि इति उदाहरणं, द्वे ऊधसी यस्याः इत्यर्थे द्विशब्दस्य ऊधस् शब्दस्य च बहुव्रीहि समासः अनङादेशः द्व्यूधन् इति भवति. ईपि कृते द्व्यूधन् ई अलोपो नः इत्यनेन अल्लोपे द्व्यूध्नि इति रूपम्. अत्यूध्नि अतिशयितम् ऊधः यस्याः इति बहुव्रीहि समासे, अति इत्यस्य ऊधस् इत्यनेन समासे अत्यूधस्, अनङादेशे अत्यूधन् अल्लोपे नीप अत्यूधन् ई अल्लोपे कृते अत्यूध्नि इति रूपम्. सो संख्यादिः द्व्युध्नि इति, अव्ययादिः अत्यूध्नि इति. सो बहुव्रीहेः इत्येव. नौ इफ् देर् इस् अ बहुव्रीहि विच् इस् एण्डिङ्ग् इन् ऊधस् एण्ड् बिगिनिङ्ग् वित् ईदर् संख्या आर् अव्यय, this sutra will apply. So therefore, udhodikranta atyudhaha iti udaharane, udhaha atikranta iti tatpurusha samasa. So this is atyadayaha krantyadhyarthe dvitiyaya iti tatpurusha samasaha. So since it is not bahuvrihi, if you look at the vyakhyana, udhodikrante iti, so that is what he says. अत्यादयः क्रान्ताद्यर्थे द्वितीयया इति समासस्य अबहुव्रीहित्वात् न नीप्, अत एव न अनङ् नापि नीश्. सो इट् इस् नाट् अ बहुव्रीहि समास एट् आल्, इट् इस् तत्पुरुष. देर् फोर् देर् इस् नो नीप्, देर् इस् नो अनङ् बिकास् ऊधसो अनङ् आल्सो अप्लैज् ओन्लि फोर् बहुव्रीहि एण्ड् देर् इस् नो नीश् आल्सो. अत्यूधाः इति सकारान्तं प्रातिपदिकम् अत्यूधस् इत्येव. अग्रिमं सूत्रमस्ति दामहायनान्ताच्च. बहुव्रीहे रूधसु पदद्वयं दामहायनान्तात् च बहुव्रीहे रुधसः उधसोङी चित्यतः बहुव्रीहेः इत्येव अनुवर्तते. देर् इस् अन् एरर् हियर्. ऊधसः इस् नाट् बीङ्ग् टेकन् हियर्. बहुव्रीहेः इत्येव अनुवृत्तिः. सङ्ख्याव्ययादेर् ङीप् इत्यतः सङ्ख्यादेः ङीप् इति अनुवर्तते. कोऽर्थः सङ्ख्यादेः बहुव्रीहेः दामान्तात् हायनान्ताच्च ङीप् स्यात्. सो बहुव्रीहि समासः सङ्ख्यादिः दामान्तः. So, beginning with the sankhya and ending with the word daman. Daman is again a nakaranta. And a bahuvrihi samasa beginning with a sankhya and ending with hayana. So, in both these cases, there is neep. So, sankhya dehe iti. Avyagrahanam tu na anuvartate asvaritatvat iti bhavaha. So now, in the previous sutra, it said sankhyavyayadehe, which is a single word, a samasa, sankhyadehe, avyayadehe, cha, it is not separate words. So usually, the whole word has to be taken as anuvritti. I mean, that is the usual case, whenever you don't take a part of a word as anuvritti. But there are some special cases where, owing to prayoga, we take one part of it, say the sankhya avyaya dehe refers to something which starts with a sankhya and avyaya. Asvin sutre tu kevalam sankhya dehe ityasya iva anuvrittihi, nato avyaya dehe ityasya. Damante dap pratishedhayohu praptayohu, hayanante tapi prapte vachanam. So damante iti, so if you look at it, द्विदामन् शब्दे. सो द्वे दामनी यस्यास्सा इति बहुव्रीहि समासे द्विदामन् इति नकारान्तं भवति. द्विदामन् शब्दे दामान्ते दाबुभाभ्याम् इति डापि, अन उपधालोपिनः इति ङीपि, अनो बहुव्रीहेः इति ङीप् प्रतिषेधे च प्राप्ते. सो So, I don't know, the Mula just says Daap Pratishedhayoho Praptayoho. Because, I mean, the ana upadhalopino annata manaha. Yeah, this is a mananta and not ananta. So, there is, as you can see, there is an error in Balamanorama. So, he says, Vidaman Shabde. The Mula says, Dab Pratishedhayohu Praptayohu. As you can see, Dikshitar is very clear. In the previous case, he said, Daap, Neep, Nishedheshu, Prapteshu. So, there are three possibilities there. There is Daap, there is Neep, and there is Nishedha. But here, he says, there is only two. There is Daap, and there is Nishedha. Only two. But the Vyakhyana, that is the Balamanorama, is saying, there is three. He is again saying, Daamante, Daabubhabhyam, iti Daapi. अनो उपधालोपिनः इति ङीपि, अनो बहुव्रीहेः इति ङीप् प्रतिषेधे च प्राप्ते. सो हि जस्टिफैस् हिम्सेल्फ् लेटर्. सो लेट् अस् सी. सो हि सेस् देर् इस् three things. So, I just have a doubt here, which I will clear myself and then explain it. So, what he is saying here is, so, daman iti asti, dvidaman iti nakarantam. Nakarantatvat, anaupadha, anobahuvrihehe ityanena nishedha bhavati. So, So, neep, there is neep nishedha. And because of the dab bhabhyam anyatarasyam ityanena, dap prapti hasti. And then, there is this what? Anaupadhalopino anyatarasyam ityanena. Neep vikalpena prapnoti. Iti balamanoramakaraha vadati. But I have a doubt whether the nishedha here should be manaha or anobahuvrihehe, because this is mannanta. Right? Daman. The Dhamma was an example which was given in the Mula for Manaha also. He said Sima Simano Simanaha and Dhamma Dhammano Dhammanaha. Right? So Dhamman is a Mannanta. So actually the Nishedha should be by Manaha and not Anobahuvrihehe. While the Balamanoramakara says Anobahuvrihehe, which I doubt. Because I guess that is why Dikshita gave a second example there, taking Dama Damanu Damanaha also. So Atra Manaha Ityeva Nishedha Bhavet, because this is Mannanta. Manaha Ityanenaiva Nishedha Syat. Atayeva cha Dap Pratishedhayohu Praptayohu Iti Dikshitaihi Uktam. Dabhubhabhyam Anyatarasyam Ityanena Dap Bhavati. Manaha Ityanena Neep Nishedha Bhavati. Iti Mule Uktam. Dvivachanamena Daptam. Katham Yakshakarena Bahuvachanam Dattam Iti. Yes. Yeah, he also gives three forms. Neep Nishedha. Bhavaragivad Drupatayam Bhavati. But, I think then it might be a Manaha and Anobahuvrihehe. So if there is both Paratvata Anobahuvrihehe, it Nishedha Bhavet. Because again, later on he says, Dab Nishedha Vati. Tatra punaha bala manoramaya muchyate, he just reiterates its point. Apina anaupadhalopinaha iti neep grihyate itya uchyate. Okay, so now let us go by the vyakhyana. So if there is prapti for both manaha and anobahuvrihehe, paratvata anobahuvrihehe ityanena nishedhaha iti cheta anobahuvrihehe ityanena neep nishedhaha bhavati anantaram dabhubhabhyam anyatarasyam ityanena dap anaupadhalopino anyatarasyam ityanena vaikalpikena neep bhavati. So why did Dikshita use a dvivachana here is a question. So let us see. I'll think more about this. Okay, so we will go by this. Dvidaman shabde damante davubhabhyam iti dapi anupadhalopinaha iti ngipi anobahuvrihehe iti ngip pratishedhe cha prapte dvihayani ityatrapi hayanante adat tatva tapi prapte. Well, in the case of dvehayane yasyaha dvihayana iti samasaha, so it is akaranta. Akarantatvat tapi prapte damahayanantacha iti vachanam. So, in both cases, by this sutra, overruling everything else, there is neep. Nityameva neep pratyaha bhavati ityarthaha. Okay, so, inka prashna asti, is there a paribhasha? Ann, we are saying, annantad bahuvriheha. So, it is a visheshana. Visheshana grahane tadantagrahya. Yena vidhis tadantasya ityanena tadantavithihi. Visheshanam tadantasya samyasyat sasyate rupasya. So, dvidamni. Dve damani isyaha sa iti arthe dvidaman iti pratipadikam. Neep pratyaha anena sutrena nityam neep. So, it overrules everything else and gives a compulsory neep. So, dvidaman e allopekrate dvidamni iti rupam. So the Vyakhyana says this, that there is nothing special. Avyegrahana ananuvrittehe uddama vadava ityatra dab nishedha vapi pakshestaha. So since there is no avyaya being taken as anuvritti here, purva sutre yadyapi sankhya avyayadehe ityasti tathavi atra avyegrahanam nanuvartate. Tena yadi avyayadihi bahuvrihihi bhavati tada अस्य सूत्रस्य प्रवृत्तिः नास्ति. दामहायनान्ताच्च इत्यस्य प्राप्तिः नास्ति. उद्दामा वडवा इत्यत्र दाम निषेधावपि पक्षे स्तः. सो इन एडिशन टू ङीप् दैट इज ङीप् बै अनौपधालोपिनोऽन्यतरस्य, देयर इज डाप् बै डाभुभाभ्याम् अन्यतरस्य, एंड निषेध बै अनौबहुव्रीहेः. सो देयर फॉर देयर विल बी थ्री फॉर्म्स, उद्दामा वडवा, सो उद्गतम दाम यस्याः सा इति, अथवा उत्क्रांतं दाम इत्याह सा इति विग्रहे, उत इति अव्ययम्, अव्ययादिहि बहुव्रीहिः, उद्दामन् इत्यस्ति, तत्र डाप् प्रत्यये कृते आकारान्तत्वं भवति उद्दामा इति. निषेधे अर्थात् अनोबहुव्रीहेः इत्यनेन ङीप् निषेधे उद्दामन् इति नकारान्तमेव भवति. अनौपधालोपिनोऽन्यतरस्याम् इत्यनेन वैकल्पिके ङीपि उद्दाम्नी इत्यपि रूपं भवति. रूपत्रयम्, देयर विल बी थ्री फॉर्म्स इन दिस केस. अत एव व्याख्याने उच्यते अपि न दाब् निषेधौ अपि इत्यस्ति, अपि न अनौपधालोपिनः इति ङीप् गृह्यते. सो देयर विल बी ऑप्शनल ङीप् अनग्रहणे अनर्थकस्यापि ग्रहणात्. सो we have already studied this. Aninasman grahanani arthavataca anarthakena cha tadantavidhim prayojayanti. So whether it is an pratyayanta or something else ending in an, it will all be considered. Therefore this is still ananta, and anaupadhalopino anyatarasyam will apply. Is it vadava or badava? It is vadava, but generally vabayor abhedaha. Vakara vakara yohu tadashaha bhedaha nasti. There is not much difference between vakara and bakara. So there might be a usage as vadava, but vadava is the form vakara. Drihayani bala. So a girl or a child of 2 years. Drihayane yasyaha iti vigrahe. द्विहायनी, द्विहायन शब्दात् ङीपि द्विहायनी इति भवति. तत्र वार्तिकद्वयमस्ति. त्रिचतुर्भ्याम् हायनस्य णत्वं वाच्यम् इति एकं वार्तिकम्, वयोवाचकस्यैव हायनस्य ङीप् णत्वं च इष्यते इति द्वितीयं वार्तिकम्. प्रथमं किमस्ति, त्रिचतुर्भ्याम् हायनस्य. सो वेन् द वर्ड् हायन इस् प्रिसीडेड् बै द वर्ड्स् त्रि और् चतुर्, देर् इस् णत्व. त्रिचतुर्भ्याम् हायनस्य णत्वं वाच्यम् इति एकं वार्तिकम्. त्रिहायणी, त्रिहायन शब्दात् ङीप् प्रत्यये कृते त्रिहायनी इति भवति, णत्वे कृते त्रिहायणी. सो वै वुड् देर् नाट् बी णत्व, केन् वी डु णत्व बै अट्कुप्पाङ्गुं व्यवायेति. त्रि इत्यस्ति, रेफः अस्ति, हायन इत्यत्र नकारः अस्ति, मध्ये अट् एव अस्ति, हकारः यकारः च अटि अन्तर्भवति, आकारोपि. सो अटाव्यवधानेन वै शुड् वि नाट् हाव् णत्वा बै अट्कुप्पाङ्गुं व्यवायेति. किमर्थमिदं वार्तिकम्? रामेण इत्यत्र यथा भवति तथा. एक्साक्ट्लि, दे आर् नाट् समानपद. अट्कुप्पाङ्गुं व्यवायेपि इत्यत्र रषाभ्याम् नोणः समानपदे इत्यनेन समानपदे इति अनुवर्तते. त्रि इति भिन्नम् पदम्, हायन इति भिन्नम् पदम्, अतः प्राप्तिः नास्ति अनेन वार्तिकेन विधीयते. त्रिचतुर्भ्याम् हायनस्य णत्वम् वाच्यम् इत्यनेन णत्वे त्रिहायणी बाला, चतुर्हायणी बाला इति. वयसोऽन्यत्र. द्वितीयम् वार्तिकमस्ति, वयोवाचकस्यैव हायनस्य ङीप् णत्वं च इष्यते इति. सो कः अर्थः वयोवाचकस्यैव इत्यस्य? पूर्वमपि दत्तं वयसि प्रथमे इति. इत्यत्र प्राणिनां
कालकृत अवस्था विशेष वयः. सो वय और एज, वर्ड वयस विल रेफर ओनली टू एनिमल्स और लिविंग बीइंग्स. सो इन इंग्लिश वी कैन यूज आई मीन प्रोबेबली 3 year old इट कैन बी रेफर्ड इधर टू अ लिविंग बीइंग और एन इनानिमेट बीइंग. किंतु अत्र वयः इति शब्दस्य प्राणिनाम अवस्था विशेषः एव इष्यते. अतः यदा बाला इति अत एव विशेषणं दत्तं विहायनी बाला इति. वयसः अन्यत्र व्हेन इट इज नॉट वयस, दैट इज व्हेन इट इज रेफरिंग टू अ टाइम, बट दैट इज हायन मीन्स वर्ष एन ईयर. सो इट रेफर्स टू समथिंग अदर देन वयस, दैट इज इट इज नॉट रेफरिंग टू अ लिविंग बीइंग. द्विहायना, त्रिहायना, चतुर्हायना, शाला. शाला इत्यस्ति, देयर इज अ स्कूल विच इज एन ईयर ओल्ड और 2 years old और विच इज ओपन्ड 1 year ago और 2 years ago. सो तत्र नीप अपि न भवति, णत्वम् अपि न भवति. वयोवाचकस्यैव हायनस्य नीप णत्वं च इष्यते. सो बोथ नीप एंड णत्व विल अप्लाई ओनली इन केस ऑफ वयस. सो अत्र नीप अपि नास्ति, णत्वम् अपि नास्ति. द्विहायना, त्रिहायना, चतुर्हायना, शाला. टाप भवति अजाद्यत टाप इत्यनेन टाप. अग्रिमं सूत्रमस्ति नित्यं संज्ञा छन्दसोः पदद्वयम् बहुव्रीहेरूर्धसो ङीष् इत्यतः बहुव्रीहेः इति अनुवर्तते. संख्याव्यादेर् ङीप् इत्यतः ङीप् इति. अनौपधालोपि नोन्यतस्याम्. सो इफ् यु आर् लुकिङ्ग् एट् नम्बर्स् वि हेड् बहुव्रीहेरूर्धसो ङीष् संख्याव्यादेर् ङीप् दामहायनान्ताच्च, विच् वास् 27. आफ्टर् द 28 वास् अनौपधालोपिनोन्यतरस्याम्, विच् वि हव् आलरेडी सीन् अर्लियर्. देयरफोर् दे हव् स्किप्ड् इट् एण्ड् नौ 29 इस् नित्यं संज्ञाच्छन्दसोः एण्ड् देयरफोर् अनः उपधालोपिनः इति अनुवृत्तिः अस्ति. पूर्वं तु अन्यतरस्याम् इति उक्तं नित्यं संज्ञाच्छन्दसोः. सो दिस् सूत्र विल् मेक् सेन्स् ओन्ली इफ् यु टेक् द प्रीवियस् सूत्र. द प्रीवियस् सूत्र सेड् अन उपधालोपिनो अन्यतरस्याम् नित्यं संज्ञाच्छन्दसोः. द सेम् केस् इफ् इट् इस् संज्ञा, इफ् इट् इस् अ नेम् आर् इफ् इट् इस् छन्दस् अ वेदिक् यूसेज् नित्यं भवति. किं भवति? नीप्. नीप् प्रकरणमेव चलति. संख्याव्यादे नीप् इत्यतः नीप् इति अनुवर्तते. बहुव्रीहेरूधसो ङीष् इत्यतः बहुव्रीहेः इत्यस्ति. अन्नन्तात् बहुव्रीहेः उपधालोपिनः. सो इफ् देर् इस् अन्नन्त बहुव्रीहि विच् इस् उपधालोपि, नित्यं नीप् भवति संज्ञाच्छन्दसोः. संज्ञायां छन्दसि वा नित्यं नीप् भवति. सो द प्रीवियस् सूत्र सेट् विकल्प. नौ दिस् इस् नित्यम्. सुराज्ञी नाम नगरी. शोभनः राजा यस्यां सा इति बहुव्रीहि समास. सुराजन् इति नकारान्तं प्रातिपदिकम्. हियर् इट् इस् अ नेम्, इट् इस् नाट् द अवयवार्थ. शोभनः राजा यस्याः इति अवयवार्थः न गृह्यते. सो सुराज्ञी इस् जस्ट् द नेम् आफ् अ सिटि. वेदर् इट् हेज् अ गुड् किङ्ग् आर् अ बेड् किङ्ग्, इट् विल् स्टिल् बि काल्ड् सुराज्ञी. अत एव संज्ञा इति दर्शयितुं सः शब्दः दत्तः. सो अत्र संज्ञात्वात् नित्यमेव ङी भवति, सुराज्ञी इति एकमेव रूपम्. सो इफ् इट् आक्चुअली इस् सुराज्ञी, दट् इस् युर् यूसिङ्ग् इट् एस् अ विशेषण. इफ् द विवक्षा इस् शोभनः राजा यस्यां, तदा तु रूपत्रयं भवति. डाप् भवति सुराजा इति, निषेधः भवति सुराजन् इति नकारान्तं प्रातिपदिकम्. नीप् विकल्पेन भवति, किन्तु यत्र संज्ञा तत्र नित्यं नीप् भवति. सुराज्ञी नाम नगरी. अन्यत्र अर्थात् संज्ञां छन्दसं वा विहाय अन्यत्र पूर्वेण नाम अनौपधालोपिनोन्यतरस्याम् इत्यनेन विकल्प एव. सो देट् विल् बि आप्शनल् नीप्. वेदे तु शतमूर्ध्नि वैदिकप्रयोगः शतमूर्धन् इति नकारान्तम्. वैदिकप्रयोगः इत्यतः नित्यं नीप् भवति शतमूर्ध्नि इति रूपम्. सूत्र केवल मामक भागधेय पापापर समानार्यकृत सुमंगल भेषजाच्च. सो नव पदानि सन्ति. केवल मामक भागधेय पाप अपर समान आर्यकृत सुमंगल भेषजात संख्या व्यादे नीप इत्यतः नीप इति अनुवर्तते लित्यं संज्ञाच्छन्दसोः इति पूर्णम् अनुवर्तते कोऽर्थः सूत्रस्य एभ्यः नवभ्यः नित्यं नीप स्यात् संज्ञाच्छन्दसोः सो फॉर दीज नाइन वर्ड्स देयर इज कंपल्सरी नीप इन संज्ञा दैट इज व्हेन इट इज अ नेम और इफ इट इज अ वैदिक प्रयोग छन्दसि अथोत इन्द्रः केवलीर्विषः केवल इति प्रथमं पदम् सो केवल इत्यस्मात् नीपि कृते केवली इति भवति मामक इत्यस्मान् नीपि मामकी तनु सो दीस् टु आर् एक्साम्पल्स् आफ् छन्दस् सिमिलर्लि भागधेयी पापी अपरी समानी आर्यकृती सुमङ्गली भेषजी सो आल् दीस् आर् used are to be used only in a samya that is if in loka loke prayogaschet samyayam eva bhavet that is bhagadheyi can be the name of somebody so and anyatra kevala ityadi so if it is neither samya nor chandas then there will be tap sarve adantaha ataha tap bhavati kevala mamika bhagadheya पापा अपरा समान आर्यकृता सुमंगला भेषजा सो मामक ग्रहणम नियमार्थम अन्नंतत्वादेव सिद्धेः सो नाउ दिस मामक द वर्ड मामक इट इज डिराइव्ड बाय एडिंग द प्रत्यय अन्न टू अस्मत् सो ममक आदेश सो इट बिकम्स मामक अण्णन्तत्वात् टिड्ढाणै इत्यनेनैव नीप् प्राप्नोति तर्हि अनेन अस्मिन् सूत्रे किमर्थम् ग्रहणम् इति चेत् नियमार्थम् कः नियमः संज्ञायाम् छन्दसि चैव नीप् भवति अन्यत्र न भवति इति नियमार्थम् सो द नीप् वि केन् आड् नीप् ओन्ली इफ् इट् इस् संज्ञा आर् इफ् इट् इस् छन्दस् तेन लोके असंज्ञायाम् सो इन् लोक इफ् इट् इस् नाट् अ संज्ञा मामिका इति टाबन्तः एव भवति सो इट् शुड् बि टापन्त एण्ड् नाट् नीप् इवन् दो इट् इस् अन्नन्त नीप् न भवति टाप् एव भवति सो केवल मामक एट्सेट्रा यु केन् सी दिस् सुमङ्गल दट् इस् एक्चुलि अ प्रेटी इट् इस् अ टर्म् यूजुअलि यूस्ड् इन् से वेन् दे से दीर्घ सुमङ्गल ई भव So they generally use Sumangali Bhava, which is actually wrong, because Sumangali can only be a Samya, name of something, and it is not the name that is being intended when they are using it as an Ashihi, right? Tirtha Sumangala Bhava ityeva vastutaha prayoktavyam. Sumangali iti vedeva tasmin arthe prayogaha bhavati. Loketu Sumangala Bhava ityeva vaktavya, but there are mostly the word Sumangali will be used, which is wrong according to this okay. So we'll stop here and continue tomorrow any questions yes what Yeah, because in the chandas always, okay, what does he say? I'll just... Nityam. It is pure. Ah, yeah, that is, yes, yes. Ah. So even if there is something as in, if the samasa is between two or three words and there is something in between, you can still have it. It is there. So nitya, where is it? In tattva-bodhini or balmano? No, nitya grahana. Yeah, yeah, arambha samarthya, obvious. Okay, yeah, those things. आरंभ सामर्थ्य सिद्धे नित्यत्वे इति ग्रहणम् उत्तरार्थ विकल्प अननुवृत्ति सूचनाय कृतम् इति आहुः.
It is samyachanda soho can just have been told, but yeah, for it makes clearer thing. As in, it's very clear when you hear anupadhana upino anyatarasyam and you hear nityam samyachanda soho, you know that the anyatarasyam is not getting anuvritti here, that it is nitya. So spashtartham. So there are many cases where they do this. They say, I mean, this thing is for clearer this or not actually needed. But the artha is still the same. I mean, whether nitya is there or not, the sutra artha will still have nitya. It is a compulsory pratyaya. It's only if it is required in the sutra or not. So it might not be required, but the sutra artha tu nityam nibhavati itteva artha grahya. Anything else?
हेनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयं नमस्कृत्य तदुक्तीश्वरिभाव्य च वैयाकरणसिद्धान्तकौमुदीहं विरच्यते. टुमोरो सेम टाइम.